प्रथम मंत्र का शंकर भाष्य। ईशा इष्ट इतीट तेनेशा ईशिता परमेश्वरः। परमात्मा सर्वस्य स हि सर्वमिष्टे सर्वजन्तूनात्मात्मा संप्रत्यगात्मतया तेन स्वेन स्वरूपाणात्मेनेशा वास्यमच्छादनीयम्। किम् इदं सर्व यत्किंच यत्किंचित् जगत्याम् पृथिव्याम् जगत् सर्वं स्वेनात्मना ईशेन प्रत्यगात्मतयाहमेदं वेदं सर्वमितिं परमार्थसत्यरूपेण अनृतम् इदं सर्वं चराचरम् आच्छादनीयं स्वेन परमात्मना। यथा चन्दनागर्वतेरुदकादिसम्बन्धजलेद्वा दीजमौपाधिकं दौर्गन्ध्यं तत्स्वरूपं निघर्षणेन आच्छाद्यते स्वेन परमार्थिकेन गन्धेन। तद्वदेव हि स्वात्मनि अध्यस्तं स्वभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्वैतरूपं जगत्यां पृथिव्यां जगत्याम् इति उपलक्षणार्थत्वात् सर्वमेव नामरूपकमाख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात्। एवमीश्वरात्म्यभावनया युक्तस्य पुत्राद्येषणत्रयसंन्यास एवाधिकारो न कर्मसु तेन त्यक्तेन त्यागेनत्यर्थः। न हि त्यक्तो मृतः पुत्रो वा भृत्यो वा आत्मसम्बन्धिताया अभावात् आत्मानं पालयति। अतस्त्यागेन इत्यमेव वेदार्थः भुञ्जिथाः पालयेथाः। एवं त्यक्तैषणत्सत्वं मा गृधः गृधिमा काङ्क्षा मा कार्षीर्धनविषयाम कस्य स्विद्धनम् कस्यचित्परस्य स्वस्य वा धनं मा काङ्क्षिरित्यर्थः। स्वदित्यनर्थको निपातः अथवा मा गृधः कस्मात् कस्य स्विद्धनमित्याक्षेपार्थो न कस्यचिद्धनमस्ति। यद्गृध्यते आत्मै वेदम् सर्वं इति स्वरभावनया सर्वत्यक्तम् आत्मन एवेदं सर्वमात्मैव च सर्वमतो मिथ्याविषयां गृधिं मा कीर्षिरित्यर्थः।